इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री नरेन्द्रमोदी अद्य निर्वाचनप्रचारार्थं पश्चिमबंगालराज्यस्य कूचबिहारे गमिष्यति। कूचबिहार रासमेलाक्षेत्रे सः कूचबिहार जनपदस्य अष्टसु आसनेषु, अलीपुरद्वार जनपदस्य पञ्चसु आसनेषु च भाजपेति दलस्य प्रत्याशिनां समर्थने प्रचारं करिष्यति। प्रधानमन्त्रिणः जनसभायाः प्राक् राज्यभाजपाध्यक्षः, राज्यसभायाः सदस्यश्च श्रमिकभट्टाचार्यः कूचबिहारनगरस्य निवासिनः च प्रधानमन्त्रिणः जनसभां भव्यतया सफलं कर्तुं प्रार्थितवन्तः। भाजपेति दलेन पश्चिमबंगाल विधानसभानिर्वाचनार्थं पञ्च प्रत्याशिनां नूतना सूची प्रकाशिता। अनुपमविश्वासः कल्याणीतः, कृष्णानगर उत्तरतः तारकनाथ चटर्जी, दमदम उत्तरतः सौरव सिकन्दरः, मध्यमग्रामतः अनिन्द्य राजू बनर्जी, उलुवेरिया पूर्व विधानसभाक्षेत्रात् रुद्रप्रसाद बनर्जी च स्पर्धिष्यति। दलं पूर्वसूच्यां नामानि अपि नवीकृतवान्। अधुना कौशिक सिद्धार्थः बशीरहाट उत्तरतः, अभिजित सरदार विष्णुपुरतः, शंकर सिकदारः च बेहाला पूर्व विधानसभाक्षेत्रात् स्पर्धिष्यन्ते। भारत निर्वाचनायोगेन पश्चिम बंगालस्य पानीहाटी विधानसभाक्षेत्रस्य क्षेत्र सहायकं अतनु चक्रवर्ती इत्यमुं निष्कासितम्। तथा च दुराचारस्य कर्तव्य निष्क्रियतायाः च कृते कारणदर्शक संचेतनापि प्रदत्ता। एषा क्रिया चक्रवर्तिनः राजनैतिक क्रियाकलापेषु विशिष्टैः दलैः सह संलग्नतायाः प्रतिवेदनानाम् अनन्तरमस्ति, यत् आयोगेन संज्ञानं स्वीकृतम्। पृथक् घटनायाम् आयोगेन मुर्शिदाबाद मण्डलस्य बहरामपुरस्य प्रभारी निरीक्षकस्य विरुद्धं कर्तव्यनिष्क्रियतायाः विषये अनुशासनात्मकं कार्याचरणं समारब्धम्। इदं कांग्रेस दलस्य वरिष्ठस्य पूर्व संसत्सदस्यस्य च अधीररञ्जन चौधरीवर्यस्य निर्वाचनस्य प्रचारस्य नामांकन प्रक्रियायाः च समये अवैध अवरोधस्य प्रतिवेदनानि अनुसरति। एतदतिरिच्य निर्वाचनायोगेन तस्मिन्नेव घटनायाः विषये चतुर्णां तृणमूल कांग्रेस दलस्य नेतृणां विरुद्धमपि कार्याचरणं समारब्धम्। भारतीय जनता पार्टीति दलेन पुदुचेरी विधानसभा निर्वाचनस्य कृते स्वस्य निर्वाचन घोषणापत्रं प्रकाशितम्, यत् कल्याण विकास उपायानां श्रृंखलायाः प्रतिज्ञां करोति। घोषणापत्रस्य विमोचनं केन्द्रीय मन्त्रिणा तथा भाजपेति दलस्य वरिष्ठ नेत्रा डॉ मनसुख मांडविया वर्येण राज्यगृहमन्त्रिणः एके नमशिवम वर्यस्य उपस्थितौ कृतम्। भाजपेति दलस्य राज्याध्यक्षः वीपी रामलिंगम, अन्ये च भाजपा नेतारः विमोचन कार्यक्रमे उपस्थिताः आसन्। प्रमुखेषु प्रतिज्ञासु सर्वेभ्यः राशन कार्ड धारकेभ्यः प्रतिवर्षं पोंगल तथा विनयगर चतुर्थी उत्सवयोः द्वयोः निःशुल्क एलपीजी सिलेण्डर इत्येतयोः व्यवस्था अस्ति। महिलानां सशक्तिकरणार्थं दलेन पिंक ऑटो इनिशिएटिव इत्यस्य प्रस्तावोऽपि स्वीकृतः, यस्मिन् 50,000 रूप्यकाणाम् अनुदानं, निःशुल्क चालन प्रशिक्षणं च अस्ति। द्वादशी कक्षायाः मेधावी बालिकानां कृते ई स्कूटर इत्येतस्य प्रदानाय अम्बुथंगैथिट्टम् इत्यस्यापि प्रस्तावो वर्तते। भाजपेति दलं ग्रुप सी तथा डी सर्वकारीय क्षेत्रेषु 60% अधिवास आरक्षणं, केन्द्रशासित सार्वजनिक विश्वविद्यालयेषु स्थानीय छात्राणां कृते 20% यावत् आरक्षणं च प्रतिज्ञा कृतवान्। आईपीएल क्रिकेट क्रीडायां गतरात्रौ अहमदाबादनगरस्य नरेन्द्र मोदी क्रीडांगणे राजस्थान रॉयल्स दलेन गुजरात टाइटन्स दलं 6 धावनांकैः पराजितम्। अद्यतनीयायां स्पर्धायां सनराइजर्स हैदराबाद दलं हैदराबादनगरस्य राजीव गांधी अन्तर्राष्ट्रिय क्रीडांगणे अपराह्ने 3:30 लखनऊ सुपर जायंट्स दलं सम्मुखीकरिष्यति। इति वार्ताः।